नमस्यासं सज्जन् नमुचि परिपन्थि प्रणयिनी निसर्गप्रेखोल कुरलकुलकालाहि शबले न कच्छाया दुग्धो दधि पयसिते वैद्रुमरुचां प्रचारं कामाक्षि प्रचुरयति पदा सुषमा कदा दूरीकर्तुं कटुदुरितकाकोलजनितं महान्तं सन्तापं मदनपरिपन्थिप्रियतमे क्षणात्ते कामाक्षि त्रिभुवन परितापहरणे पटीयां संलप्स्ये पदकमल सेवामृतरसम् ययो सान्ध्यं रोचिः सततम् अरुणिम्ने स्पृहयते ययोश्चान्द्रीकान्तिः परिपतति दृष्ट्वा नखरुचिं ययोः पकोद्रेकं पिपटिषति भक्त्या किसलयं प्रदीम्ने कामाक्ष्य मनसि चरणौ तौ तनुमहे जगन्नेदं नेदं परम् इति परित्यज्य यतिभिः कुशाग्रियस्वान्तैः कुशलधिषणैः शास्त्रसरणौ गवेष्यं कामाक्षि ध्रुवम् अकृतकानां गिरिसुते गिरामिदं पर्यं तव चरणपद्मं विजयते कृतस्नानं शास्त्र अमृतसरसि कामाक्षि नितरां दधानं वैषद्यं कलितरसमानन्दसुधया अलङ्कारं भूमेः मुनिजनमनश्चिन्मयमः पयादेः अन्तस्थं तव चरणरत्नं मृगयते मनोगेः महोद्भवति मिरपूर्णे मम मुहुः दरिद्राणि कुर्वन् दिनकरसहस्राणि किरणैः विदधतां कामाक्षि प्रसृमरतमो वञ्चनचणः क्षणार्धं सान्निध्यं चरणमणिदीपा जननिते कवीनां चेतोपत् नखररुचिसम्पर्के विबुध श्रवन्ति श्रोतोवत् पटुमुखरितं हंसकरवैः दिनारम्भशीवत् नियतम् अरुणच्छाय सुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् सदा किं सम्पर्कात् प्रकृतिकटिनैर्नाकिमुकुटैः तटैर्निहाराद्रेः अधिकमणुना योगि मनसा विभिन्ते सम्मोहं शिशिरयति भक्तानपि दृशाम् अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः प्रवालैरम्भोजैः अपि च वनवासव्रतदशः सदैव आरभ्यन्ते परिचरितनानाद्विजगणैः चिरादृश्या हंसैः कथमपि सदा हंससुलभं నిరస్యంతి జాడ్యం నియత జడమధ్యైక శరణం అదోష వ్యాసంగా సతతమపి దోషాప్తి మలినం పయోజం కామాక్ష్యః పరిహసతి పాదాబ్జయుగళీ.